रामः लक्ष्मणः सीता च दण्डकवनवासिनः अभवन् तत्र रामेण बहवः राक्षसाः निशाचारिणः विराध आदयः कृताः एकदा तु शूर्पणखा नाम राक्षसी राघवस्य आश्रमम् आगच्छत् तं च अब्रवीत् राम रूपी भवसि त्वां कामये माम् अद्य परिणय तव हिता गृहिणी भविष्यामि इति। तत् श्रुत्वा तां रामः प्रति अवदत् मम सीता भार्या ततः त्वां परिणेतुं न शक्नोमि तद् अयम् लक्ष्मणनामधेयः मद्भ्राता त्वां परिणयेत् इति। सः तु लक्ष्मणः तां परि अहसत् ततः क्रोधसंयुक्ता शूर्पणखा सीताम् अतिबलेन अक्रामत् रामेण आज्ञापितः लक्ष्मणः तस्याः नासां कर्णौ च आकृन्तत्।